गणानान् त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनः शृण्वन्नो दिविः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ भगवते रुद्राय ॐ नमस्ते रुद्रमञ्जव उतोत इषभे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातभतयाणो रुद्रमृडया याते रुद्र शिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशेः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुंसि पुरुषम् जगत् शिवेण वचसा त्वा गिरिशाच्छा वदामसे यथा नः सर्वमिच्छगद यक्ष्मकुम् सुमना असत अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक अहेकश्च सर्वाज्यम् वयन् सर्वाश्च यातु धान्यः असौ यस्ताम्र अरुण उत बभृः सुमङ्गलः ये चेमागुम् रुद्र अभिता दिक्षु श्रुताः सहस्रशो वैशागुम् हेड एमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा दृशन्न दृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अथो ये अस्य सत्त्वानो हन्तेभ्यो करन्नवः प्रमुञ्चदन्वनस्त्वमुभयोरार्ज्ञयोर्जा याश्च ते हस्त इषव पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानाम् मुखा शिवान सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेषण्णस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीढुस्तमहस्ते बभूवते धनुः तयास्मान् विश्वतत्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युम् जयाय सर्वेश्वराय सदाशिवाय ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾಂಜೇ ದಿಶಾ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸಸ್ಮಿಂಜರಾಯತ್ವಿಷೇಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ ಬಬ್ಲುಷಾಯ ವ್ಯಾಧಿನೇನ್ನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯತತಾವಿನೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂದ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೇ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕೃತ್ಸ್ನಭೀತಾಯ ಧಾವತೇ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತೇನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಶುಧಿಮಧೇ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ಸ್ತಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇರವೇ ಪರಿಚರಾಯಾರಣ್ಯಾಣಾಂ ಪತಯೇ ನಮೋ ನಮ. ಶ್ರಿಕಾವಿಭ್ಯೋ ಜಿಕಾಗುಂಸದ್ಭ್ಯೋಮಶ್ನತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಶ್ರೀಮದ್ಭ್ಯೋ ನ ತಂ ಚರದ್ಭ್ಯಃ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಇಷು ಮದ್ಭ್ಯೋ ಧನ್ವಾಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಯಶ್ಚದ್ಭ್ಯೋ ವೃಷಜ ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋಸ್ಯಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ತಿಷ್ಠದ್ಭ್ಯೋ ಧಾವದ್ಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ಭೋ ನಮಃ. ನಮ ಆ ವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮ ಉಕಣಾಭ್ಯಸ್ತ್ರಿಗುಂಹತೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ವ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ಗಣೇಭ್ಯೋ ಗಣಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮಃ ಶತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮ ಚಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮ ಕುಲಾಲೇಭ್ಯ ಕಲ್ಮಾರೇಭ್ಯಶ್ಚ ಭೋ ನಮೋ. ನಮ पुञ्जश्चेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नम श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीढुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रयाय च शेभ्याय च नमः ऊर्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्धते च नमो वर्मिणे च वरूथिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तीक्ष्णे शवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च भट्ट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वा स्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः भार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रभाह्याय च नम इरिण्याय च प्रपथ्याय च नम किगुंशिलाय च क्षयणाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम सल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नम शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्व्याय च नम पर्याय च पर्णषद्याय च नमो पगुरमाणाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीभत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीलोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मावेर्मा रोमो एषाम् किञ्चन ममत या ते रुद्र शिवा तनु शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयाणो मृडजीवसे इवागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यदा नश्यमसद्विपदे चतुष्पदे विश्वम् मुष्टङ्ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्यामतवरुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम्
मातरम् क्रियामान तनुभो रुद्रलीलितः मानस्तोके तनये
वीरान्मानो रुद्रभामितो बदेर्हविष्मन्तो नमजा विधेमते आरात्ते गोघ्न उत पोरुषज्ञे क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च न शर्म यच्च द्विबर्हा सुहिश्रुतङ्गर्थ स दैयुवानम् मृगण्ण भीममुपहत्नमुग्रम् मृडाजरित्रे रुद्रस्तवाणो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्वतिरगायोः अवस्थिरामगवद्भ्यस्तनुष्वमीढ्वस्तोकाजतनयाय मृडया मीढुष्टमशिवतम शिवो न सुमना भव परमे वृक्ष आयुधन्निधाय कृतिम् वसा न आचर पिनाकम् बिभ्रदा गहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुंहेतयोऽन्यमस्मन्निवपन्तुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्र अधिभूम्या तेषागुम् सहस्रयोजने वदन्वाणि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाधि नीलग्रीवाश्रितिकण्ठा शर्व अधः क्षमाचर नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिका सत्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृदा जव्युधः ये तीर्थानि प्रचरन्ति शुकावन्दो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रदिचीर्थशोदिचीर्थशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्वोजश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनाद्मृत्योर्मुक्षे यवामृतात् यो रुद्रो अग्नयो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्यर्मे पाहि तमुष्टु हि यस्विषुः सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे एष जोयगुम् शिवाभिमर्षणः ॐ शान्ति शान्ति शान्तिः ॐ शं च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे जन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संवित्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे सेरम् च मे लयश्च मृतम् च मे मृतम् च मे जक्ष्मम् च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाजश्रितः वाग्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे वायुर्मे प्राणे श्रितः प्राणो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे दिशो मे श्रोत्रे श्रितः श्रोत्रगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे आपो मे रेतसि श्रिताः रेतो हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे पृथिवी मे शरीरे श्रिताः शरीरगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे ओषधि वनस्पतयो मे लोमसु श्रिताः लोमानि हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे इन्द्रो मे बले श्रिता बलगुम् हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे पर्जन्यो मे मूर्ध्नि श्रितः मूर्धा हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे आत्मा महात्मनि श्रितः आत्मा हृदये हृदयम् मये अहममृते अमृतम् ब्रह्मणे पुनर्महात्मा पुनराजुरागात् पुनः प्राणः पुनराकोतमागात् वैश्वानरो रश्मिभिर्मा पुनः अन्तस्तिष्ठत्वमृतस्य गोपाः ॐ शान्तिः 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 ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेख आसीत् सदा आधार पृथिवीम् द्यामुते माम् कस्मै देवाय हविषा विधेमा य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम य प्राणतो निमिषतो महित्वैक इद्रा जा जगतो बभूव य ईशे अस्य द्विपदश्चतुष्पद कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्र रसया सहाहुः
यस्येमा प्रदिशो यस्य बाहु कस्मै देवाय हविषा विधेमा ये नद्योरुग्या पृथिवी च दृढा येन स्वस्तभितं येन नाकः यो अन्तरिक्षे रजसो विमानकस्मै देवाय हविषा विधेमा यं क्रन्दसि अवसातस्तभाने अभ्यैक्षे ताम् मनसारे जमाने यत्राधिसोर उदितो विभाति कस्मै देवाय हविषा विधेमा आपो ह यद्बृहतीर्विश्वमाजन्गर्भम् दधा न जनयन्तीरग्निम् ततो देवानाम् समावर्तता सुरेकः कस्मै देवाय हविषा विधेमा यश्चिदापो महिना पर्यपश्यद्दक्षम् दधा न जनयन्ते यज्ञम् यो देवेष्वदि देव एक आसीत् कस्मै देवाय हविषा विधेमा मानो अहिंसेज्जनिताय पृथिव्याय वादिवम् सत्यधर्मा जजाना यश्चापश्चन्द्रा बृहतीर्जान कस्मै देवाय हविषा विधेमा प्रजा पतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग् स्यामपतयोरयीनाम् ॐ शान्ति शान्ति शान्तिः ॐ यश्छन्दसाम् ऋषभो विश्वरूपः छन्दोऽभ्योद्यमृता सम्बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूयासम् शरीरम् मे विचर्षणम् जिह्वा मे मधुमत्तमा कर्णाभ्याम्बोरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतम् मे गोपाय मेधा देवी जुषमानान आगा द्विश्वाचि भद्रा सुमनस्यमाना त्वया जुष्टानुदमाना दुरुक्ता बृहद्वदेम विदधे सुवीराः त्वया जुष्टश्चिर्भवति देवि त्वया ब्रह्मा गतश्रीरुतत्वया त्वया जुष्टश्चित्रम् विन्दते वसुसानो जुषस्वद्रविणो न मेधे मेधाम् म इन्द्रो ददातु मेधाम् देवी सरस्वती मेधाम् मे अश्विना उभावा दत्ताम् पुष्करस्रजा अप्सरासु च या मेधा गन्धर्वेषु च यण्मनः दैवी मेधा सरस्वती सामा मेधा सुरभिर्जुषता गुस्वाहा आमा मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगति जगम्या ऊर्जस्वती पयसा पिन्वमाना सामा मेधा सुप्रतीका जुषन्ता मयि मेधाम् मयि प्रजाम् मयि अग्निस्तेजो दधातु मयि मेधाम् मयि प्रजाम् मयि इन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो ब्राजो दधातु हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात्।
मेधाम्
मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम्
मयि
मेधाम् मयि मयि मेधाम् मेधाम् मयि
प्रजाम् प्रजाम् मयि
मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि अग्निरग्निर्मयि प्रजाम्
प्रजाम् मयि अग्निः
प्रजामिति प्राजाम् मयि अग्निरग्निर्मयि मयि अग्निस्तेजस्तेजोऽग्निर्मयि मयि अग्निस्तेजः अग्निस्तेजस्तेजोऽग्निरग्निस्तेजो दधातु दधातु तेजोऽग्निरग्निस्तेजो दधातु तेजो दधातु दधातु तेजस्तेजो दधातु मयि मयि दधातु तेजस्तेजो दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधाम् मेधाम् मयि दधातु दधातु मयि मेधाम् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि
प्रजाम् प्रजाम्
मयि मेधाम् मेधाम् मयि प्रजाम् मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि इन्द्र इन्द्रो मयि प्रजाम् प्रजाम् मयि इन्द्रः प्रजामिति प्राजाम् मयि इन्द्र इन्द्रो मयि मयि इन्द्र इन्द्रियमिन्द्रियमिन्द्रो मयि मयि इन्द्र
इन्द्रियम्
इन्द्र इन्द्रियमिन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्र इन्द्र इन्द्रियम् दधातु
इन्द्रियम् दधातु दधात्विन्द्रियमिन्द्रियम्
दधातु मयि मयि दधात्विन्द्रियमिन्द्रियम् दधातु मयि दधातु मयि मयि दधातु दधातु मयि मेधाम्
मेधाम्
मयि दधातु दधातु
मयि
मेधाम् मयि मेधाम् मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मयि मेधाम् मयि मेधाम् मयि मयि मेधाम् मेधाम् मयि प्रजाम् प्रजाम् मयि मेधाम्
मेधाम् मयि प्रजाम्
मयि प्रजाम् प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि मयि प्रजाम् मयि प्रजाम् मयि मयि प्रजाम् प्रजाम् मयि सूर्यः सूर्यो मयि प्रजाम् प्रजाम् मयि सूर्यः प्रजामिति प्राजाम् मयि सूर्यः सूर्यो मयि मयि सूर्यो ब्राजो ब्राजः सूर्यो मयि मयि सूर्यो ब्राजः सूर्यो ब्राजो ब्राजः सूर्यः सूर्यो
ब्राजो दधातु दधातु ब्राजः सूर्यः सूर्यो ब्राजो दधातु
ब्राजो दधातु दधातु ब्राजो ब्राजो दधातु ददात्विति दधातु ॐ शान्ति शान्ति शान्तिः
सहना
भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः पशोगुश्च मह्यमावह जीवनं च दिशो दिशा मानो हि गुंसीर्जात वेदो गामश्वं पुरुषं जगद अभिब्रदग्न आगहि श्रिया वा परिपातय पुरुषस्य विद्मसहस्राक्षस्य महादेवस्य धीमहि तन्नो रुद्र प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि
तन्नो दन्ति प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दि प्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नः षण्मुख प्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्नो गरुड प्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् वज्रणखाय विद्महे तीक्ष्णदग्ष्टाय धीमहि तन्नो नारसिगुम्ह प्रचोदयात् भास्कराय विद्महे महज्योतिकराय धीमहि
तन्नो आदित्य प्रचोदयात्
वैश्वानराय विद्महे लालीलाय धीमहि तन्नो अग्नि प्रचोदयात् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गे प्रचोदयात्
ॐ
साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् सहस्रपरमाद्देवी शतमूला शताङ्कुरा सर्वकुं हरतु मे पापं दूर्वा दुःस्वप्ननाशिनी काण्डात् काण्डात् प्ररोहन्ति परुषः परुषः परे एवानो दुर्भे प्रदनु सहस्रेण शतेन च या शतेन प्रदनोषि सहस्रेण विरोहसि तस्यास्ते देवेष्टके विधे महविषा भयम् अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा
शिरसा धारयिष्यामि
रक्षस्व मां पदे पदे भूमिर्धेनुर्धरणी लोकधारिणी उद्धृता शिवराहेण कृष्णेन शतबाहुना वृत्तिके हन मे पापं जन्मया दुष्कृतं कृतं वृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता वृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितं वृत्तिके प्रतिष्ठिते सर्वं तन्मे निर्नुद वृत्तिके तया हतेन पापेन गच्छामि परमां गतिम् यत इन्द्रभयामहे ततो नो अभयं कृधे मघवञ्छग्ने तव तन्न ऊतये विद्विषो विमृधो जहे स्वस्तिदा विषस्पतिर्वृत्रः विमृधो वशे दृशेन्द्र पुर एतु न स्वस्तिदा अभयङ्करः स्वस्ति न इन्द्रो वृद्धश्चव स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताच्छो अरिष्टनेमि स्वस्ति नो बृहस्पतिर्दधातु आपान्तमन्युस्त्रिपलप्रभर्वादु निश्चिमे वाञ्छरुमागुमृजीषे सोमो विश्वान्यतसावनानि नार्वागिन्द्रम् प्रतिमानानि देवुः
स्वस्ति प्रजाभ्यः परिपालयन्ताम्
न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति